ॐ सहना भवतु,
ॐ सहना भवतु,
सहनो भुनक्तु,
सहनो भुनक्तु,
सह वीर्यं करवावहै,
सह वीर्यं करवावहै,
तेजस्विनावधीतमस्तु,
तेजस्विनावधीतमस्तु,
मा विद्विषावहै,
मा विद्विषावहै,
ॐ शान्ति शान्ति शान्तिः,
ॐ शान्ति शान्ति शान्तिः.
Does anybody know Saraswati Vandana?
Saraswati Namastubhyam Varade Kamarupini Vidyararambham Karishyami Siddhir Bhavatu Me Sada.
Yeah, Siddhir Bhavatu Me Sada, that's our prarthana. Okay, so now starting from, let's have a quick look on the Abhyas Pustakam. So, do you have Abhyas Pustakam with you?
Yes, ma'am.
Yeah, on page 1, we have covered already Mam Naam Sureshah Bhavatah Namakim Mam Naam
Sangeeta.
Mam
Naam Vimala Bhavatyah Namakim.
मम नाम अनुराधा, भवत्याः नाम किम्? सो नाउ वी आर ऑल गोइंग टू प्रिटेंड टू बी पुलिङ्गः. मम नाम सुरेशः, भवतः नाम किम्?
मम नाम रामः, भवतः नाम किम्?
संगीता भगिनी.
मम नाम रमेश, भवतः नाम किम्?
सम्यक्. सो वी आर ऑल क्लियर ऑन ऑन दिस वन.
मैडम, भवतः नाम किम्? करेक्ट मैडम.
हां, भवतः
नामः, नामः शी टोल्ड बाय मिस्टेक.
सॉरी, नो, भवतः नाम किम्? थैंक यू, धन्यवाद.
स्वागतम्.
सम्यक्, उत्तमम्. पुटे द्वितीय पुटे सेकेण्ड् पेज् वी हेव् बालकः, एषः बालकः, सः
वृद्धः,
वृद्धः,
सः गोविन्दः,
एषः आरक्षकः, सः सैनिकः.
सम्यक् न? पुनः सीता, एषा सीता, सा सन्ध्या,
एषा बालिका, सा वृद्धा, एषा नलिनी, सा सावित्री.
एकमेकं वाक्यं पठतु. देन् पुस्तकम्, एतत् पुस्तकं, तत् गृहं. विमला भगिनी.
एतत् छत्रं, तत् फलम्. एतत् उपनेत्रं, तत् दूरदर्शनं.
सम्यक्. सो एषः, सः, एषा, सा, एतत्, तत्. All of these words are very clear, right?
Yes, ma'am.
kaha ka kim usage of kaha ka kim सा बालिका
सा बालिका वा मीन्स् इस् इट् रैट् करेक्ट् मेडम्
इट्स् अ क्वश्चन् लैक् इस् इट् ए गर्ल् ओर् इस् इट् ए बालिका आम् सा बालिका यस् देट् इस् ए बालिका ओर् दिस् इस् ए बालिका
Can I read now, ma'am?
Yeah.
Saha balakaha va.
Saha balakaha va. Samyak.
Na sa yuvakaha. Saha yuvakaha.
Saha yuvakaha. Sangeeta bhagini?
Tat dwaram va. Aam tat dwaram
आम् तत् द्वारम्
आम् तत् द्वारम्
भगिनि विमला भगिनि
यस् करेक्ट् सः सैनिकः वा न सः वैद्यः
सः वैद्यः
सा युवती युवती वा
सा युवतिः वा
सा युवतिः वा न सा
वृद्धा
वृद्धा
और महिला
अच्छा न सा महिला क्या बोला
वृद्धा वृद्धा वृद्धा
महिला अपि अस्ति आम् सा महिला और न सा वृद्धा
न सा वृद्धा
सा वृद्धा
न सा वृद्धा
भगिनि नेक्स्ट् वन्
एतत् चित्रं वा न तत् चित्रं वा न तत् लोकयानं
लोकयानमस्ति अनन्तरं नेक्स्ट् अभ्यासः अस्ति एतस्य कोष्टकस्य सहायेन वाक्यानि लिखतु सो निर्मला बालिका वा आं निर्मला बालिका सा युवती न So, Nirmala, so, Balika, Balika, So, looking at the, words on the top, so, second one is Rohini, Vaidya, Vidyarthi. So, then they have this tick mark. To see whether it is true or not. So you use the arm or not. So, Bhagini, next one, Maheshaha Vidyarthi. Vidyarthi and Vaidya. Third one. Can you fill in?
Yes, ma'am. Can I read?
Yeah, that's
it. Maheshaha Vidyarthi va. आं महेशः विद्यार्थी सः वैद्यः न
सः वैद्यः न भगिनी सङ्गीता भगिनी
अनन्तः शिक्षकः वा आम् अनन्तः शिक्षकः न अनन्तः लिपिकार न लिपिकार
न अनन्तः लिपिकार न ओ
अनन्तलिपिकारः न
or you could also say anantah or sa lipikara na
okay ma'am devadattah nyayavadi va na devadattah
nyayavadi na
uttang देवदत्तः न न्यायवादी न सः उट्टङ्कः
उट्टङ्कः इस् टैपिस्ट्
ओ टैपिस्ट्
नागराज चित्रकारः वा न नागराज चित्रकारः न स आरक्षकः
सम्यक् सः आरक्षकः अग्रिमपृष्ठे
इट् इस् पृष्ट् ओर् पश्च
पुट्टे पुट्टे इस् नेक्स्ट् पेज्
पुट्टे
शार्ट् फार्म् करेक्ट् मेडम् पुट्टे नार्मल् ट
नार्मल् ट normal to put the t like a p u t t e okay so next exercise is ramah sita pustakam exercise 1 2 abhyasah 1.2
oh, just we have to say use the word prefix the like Ram, Saha Ramaha like that, come in.
It's easy, right? We can skip that one.
Okay.
Nitya Upayogani Vastuni. That also we have covered quite a lot.
Yes, ma'am.
And that. So we will go to Asti Nasti. Chitram Drishtva Asti Athva Nasti Iti Pathatu. पुस्तकम् अस्ति विद्युत् दीपः नास्ति घटी अस्ति वा
यस् मेम् घटी अस्ति
घटी अस्ति आम् घटी अस्ति
पुष्पं नास्ति
न पुष्पं नास्ति उपनेत्रं
नास्ति
पूर्णं वाक्यं वदतु भगिनि
उपनेत्रं नास्ति न उपनेत्रं नास्ति हौ टु से मेम्
जस्ट् उपनेत्रं नास्ति अपि सम्यक् अस्ति पूर्णं वाक्यम् अस्ति
उपनेत्रं नास्ति
यु कुड् एड् एनिथिङ्ग् यु कुड् एड् एनिथिङ्ग् लैक् न ओर् न बिफोर् ओर् आफ्टर् दट्स् ओके वदतु भगिनि
लेखनी अस्ति दूरवाणी अस्ति मेडम् दूरवाणी सङ्गणकं बोत् सेम् आर् हियर् वी हाव् टु से नो नास्ति
नो दूरवाणी इस् द टेलिफोन् सङ्गणकम् इस् अ कम्प्यूटर् सम्यक् भगिनि पत्रिकास्ति अपि इस् आल्सो सम्यक् अत्र अस्ति सस्यं सोरि सस्यम् अत्र अस्ति वृक्ष तत्र अस्ति
तत्र अस्ति कारयानम् अत्र अस्ति
देवालय तत्र अस्ति
अत्र यदा यदि समीपे अस्ति अत्र अस्ति दूरे अस्ति तदा तत्र अस्ति अनन्तरं वायुः सर्वत्र अस्ति देवः कुत्र अस्ति
देवः सर्वत्र अस्ति
सङ्गीता भगिनी वदतु
मम मित्रम् अन्यत्र अस्ति, तत् गृहम् अन्यत्र अस्ति.
मम मित्रम् अन्यत्र अस्ति,
तत् गृहम्
अन्यत्र अस्ति. तस्य गृहं कुत्र अस्ति?
अन्यत्र अस्ति.
Somewhere else.
Somewhere else. Okay.
Yeah. Perfect. That we don't know. We'll just say somewhere else.
Okay.
Atra, tatra, sarvatra, anyatra, and ekatra.
Okay.
Ekatra is when something is all together. Right?
Madam, can I make some sentences now?
Yeah, we will do move to the slides.
Okay.
And I wanted to summarize everything.
Okay.
That we've been studying so far. And next week or 2 weeks time, there might be some more students joining in our class.
Oh, nice.
And then we might have to repeat again. So I will let you know, keep you updated.
Okay. That girl was nice. Why she? I don't know. That Indonesian girl, her name I don't remember. She said she knows Devanagari, correct? I don't remember her name.
Sometimes the time does not suit. Sometimes different reasons. It's okay. Let's do a few sentences, Bhagini.
Yes,
Pustakam atra asti.
Pustakam tatra nasti. Pustakam kutra asti. Pustakam anyatra asti. Pustakam ekatra asti.
Yeah, pustakam ekatra asti. How?
How? I was going to ask.
It's not possible.
Nasti.
In one place we can keep like that.
But pustakam is singular, na?
Yeah. Pustakani.
Pustakani ekatra.
Or balakaha.
Oh, so like that. Okay. But plural, okay. I think.
Sangeeta Bhagini, make a 4 or 5 sentences.
Okay. Griham atra asti. Griham sarvatra nasti. गृहं तत्र अस्ति. पुस्तकम् अन्यत्र अस्ति. गृहम् आल्सो एकत्र नहीं हो सकता है.
नो,
गृहम् अन्यत्र. ओके.
पुस्तकानि अन्यत्र एकत्र अस्ति.
सन्ति.
गृहं
सर्वत्र. वी कैन नॉट यूज
बिकॉज़ यू आर यूजिंग प्लूरल बहुवचनम.
Grihani sarvatra asti.
Grihani sarvatra asti. You could say nagare in the town. Grihani sarvatra asti. Right. Okay. Next topic is Bhavan. Bhavati. And aham. And aham. Aham bhavan bhavati.
Bhavan bhavati.
Yes.
Aham anuradha.
Anuradha.
Bhavati ka.
Bhavati ka.
Aham vimala.
Ne,
bhavati ka.
Bhavati.
Bhavati is you.
This is very important for
this. Bhavati ka difference, tell me.
Sorry, Bhagini, I didn't hear you, Sangeeta Bhagini.
What is the difference between Bhavati and Bhavatya?
Bhavatyaha, when we use Bhavatyaha namakim, that is like, what is your name? Okay. It's of your, what is, it's a possessive one, Shashti Vibhakti. Okay. Bhavati is just first one. Bhavati ka. Who are you? भवान् कः?
भवान् कः?
वैद्य.
अहं वैद्या लिटिल् मोर् एक्स्प्लेनेशन् नीड् ऐ फील् मीन्स् हियर् मीन्स् भवत्याः मोर् रेस्पेक्ट्फुल्लि वी आर् आस्किङ्ग् लैक् दट् करेक्ट् मेम्
दिस् वन् इस् भवत्याः लैक् योर् नेम् आफ् योर् नेम् लैक्
हिन्दी में बताइए ना.
हाँ, हिंदी में बता सकती हूँ कि आपका नाम क्या है, या आपका नाम जो है, जैसे वो होता है ना कि आप बताइए आपका नाम क्या है.
आप कौन?
हाँ, और या भवती का वन जैसे दैट इज लाइक अ भवती. Yeah, sorry, there was a lot of noise. I had muted you for a minute. So I'm trying to explain, it's like when we say bhavati, bhavati ka, that is, meaning is still the same, but it is Pratma Vibhakti is used there, bhavati ka. Ki, what is your udhyogaha, your profession? Something like that. You could just say, aham vaidya, aham, you could use any adjective over there, like bhavati, aham sundari, aham brahma asmi, aham, whatever you want to use, say, aham nartaki, aham gaika, anything like that. So the difference only is the usage of vibhakti, the meaning itself remains the same. There is no difference between like whether it's respectful or not respectful.
Here they are answering aham nirmala, not that aham shikshika or aham something.
You could say that aham anuradha.
But aham vidyarthi, aham shikshika.
Yeah, like if you look on page 9, 1.7, aham lata, aham janardana. Bhavan kaha. Right?
Yeah, both can work.
The meaning remains the same.
Okay,
so the next one. We can do more practice if you like, but there is not much to it apart from that it is you could make a few couple of sentences. Vimla Bhagini, make two or three sentences. Bhavati ka. Bhagini, are you muted? Yeah.
Charging was less that time. अहं गृहिणी, अहं विमला, अहं विद्यार्थी, अहं संस्कृतं मिस् लर्निङ्ग् संस्कृतस्य भाषणं कर्तुम् इच्छामि
संस्कृतं पठितुम् इच्छामि संगीता भगिनी,
भवान् का? अहं शिक्षिका.
नो नो, भवती का? That is my question to you. Bhavati ka.
Aham Grihani. Aham Lipika. Writer.
Lekhika.
Lekhika. Aham Lekhika. Aham Vaigyanika.
Vaigyanika.
Done.
Okay. Aham Mata. Aham Putri. Aham भगिनी, रक्षिका, अहं वक्ता, अहं शिक्षिका,
छात्रा,
अहम् अध्यापिका, एनिथिङ्ग्. ओके, So the next one, it's good that we have a few students that we can do practice more. Okay. Anantaram, let's go to the slides, because I want to do a little bit of sixth vibhakti today. And introducing the next topic. Okay, so share. You can see already my screen, right?
Yeah, but it is Sirasa Subodha. Slide.
Yeah. My laptop is having some...
It's looking good.
सुरससुबोधविश्वमनोज्ञा ललिता हृदया रमणीया अमृतवाणी संस्कृतभाषा नच क्लिष्टं
नैव
कठिना
बट आई डोंट नो व्हाट्स हैपनिंग विद माय लैपटॉप
सो टिल देन वी विल बी सिंगिंग together.
Yeah, one? We can do that. Yeah, you have the wording in front of you.
Yeah, I think I remember it also. Kavi Kulu Guru Valmiki Rachayita Ramayana Ramaniya Katha. I had tried to learn it.
I'll sing in the meantime. सुरससुबोध विश्वमनोज्ञ ललिता हृदया रमणीया अमृतवाणी संस्कृत भाषा नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना
कवि कुल गुरु रा व्हाट इज दैट
कवि कोकिल वाल्मीकि विरचिता रामायण रमणी कथा आई थिंक माय लैपटॉप इज बिग आई डोंट नो व्हाट
इट्स ओके टेक इट इजी आई विल ओपन दैट एंड देन सिंग संस्कृत
ओके So, yeah, Kavi Kokil Valmiki Virchita Ramayana Ramaniya Katha Ativa Sarala Madhura Manjula Naiva Klishtha Nacha Kathina Naiva Klishtha Nacha Kathina Do you want to read the next one, Vimala Kavi?
Yes. Okay.
Vyasa Virichita. Do you have it?
Vyasa Virachita Ganesh Likhita Mahabharate Punya Katha Kaurav Pandav Sangan Mathita Naiva Klishta Nacha Kathina Naiva Klishta Nacha Kathina
Sangeeta Patni, next two lines.
I can do it. She wants to do it, so I'll stop.
Okay. Okay. We can do.
Vimla Bhagini can start. Or she's not.
Yeah.
She's muted.
Do
we
not.
Cannot hear her. Is she muted?
I have not muted her.
Kurukshetra Sang. समरांगण गीता विश्ववंदिता भगवत गीता अमृत
कुरुक्षेत्र अमृत मथुरा ओके सिंग लेट अस सिंग टुगेदर
कुरुक्षेत्र समरांगण गीता विश्ववंदिता भगवत गीता
कुरुक्षेत्र समरांगण गीता विश्ववंदिता भगवद्गीता अमृत मधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना
नैव क्लिष्टा न च कठिना
कविकुलगुरुनौ रसोन्मेषजा ऋतुरघुकुमार कविता विक्रम शाकुन्तल मालविका नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना.
ओके सम्यक् सम्यक्. So now you can see my screen.
Asandaha. Chair. Utpitika.
Asandaha. And utpitika.
Table. Table.
Asandaha atra asti. Utpitika atra asti.
Atra asti. Asandaha.
आसन्दः आसन्दः अस्ति वा?
आम् अस्ति आसन्दः अस्ति.
आम् आसन्दः अस्ति. उत्पेटिका अस्ति वा?
आम् उत्पीठिका उत्पीठिका अस्ति.
सम्यक्
सम्यक्.
पुरुषः अस्ति वा?
आम् पुरुषः अस्ति.
भगिनी सङ्गीता भगिनी प्रश्नं पृच्छतु.
तत् स्त्री वा? स्त्री वा?
आम् सा स्त्री.
भगिनी
तत्र ध्वजः का? तत्र ध्वज का?
आम् तत्र ध्वज अस्ति.
ध्वजः अस्ति. विमला भगिनी सङ्गीता भगिनी प्रश्नं पृच्छतु.
वन् मिनिट्. तत्र जवनिका अस्ति वा?
जवनिका इस् वाट्
कर्टन्स्.
आम् तत्र जवनिका अस्ति.
द्वारं
तत्र वातायनम् अस्ति वा?
आम् तत्र वातायनम् अस्ति.
द्वारम् अस्ति वा?
नास्ति.
तत्र द्वारम् अस्ति वा?
न तत्र द्वारं नास्ति. नास्ति
न द्वारं नास्ति.
न द्वारं नास्ति.
तत्र भावचित्रम् अस्ति वा?
तत्र
भावचित्रं
भावचित्रम्
भावचित्र पेण्टिङ्ग्
न न फोटो एनिबडीस् फोटो
नास्ति. न तत्र भावचित्रं नास्ति.
मेडम् पेपर्
ट्रम्प् महोदय कुत्र अस्ति?
तत् कुत्र तत्र ट्रम्प् महोदय नास्ति.
ट्रम्प् महोदय अन्यत्र अस्ति. समवेर् एल्स्.
ओके ट्रम्प् महोदय अन्यत्र.
Because we can't see in the picture, right?
Okay.
Vrikshaha? Vrikshaha asti va?
Aam tatra vrikshaha asti. Behind
the Pushpa?
Tatra lekani asti va? Tatra lekani asti va?
Aam tatra lekani asti.
Patram?
Aam. पत्रमस्ति.
आम् पत्रमस्ति. तोयम्
न तोयम् नास्ति.
तोयम् अस्ति वा? तोयम् कुत्र अस्ति?
तोयम् अन्यत्र अस्ति.
तोयम् अन्यत्र अस्ति. आकाशः अस्ति वा?
आम् अस्ति आम् तत्र आकाशम् अस्ति.
आकाशः सर्वत्र अस्ति. वायुः सर्वत्र अस्ति. अस्तु रामः भावचित्रमस्ति. राम अत्र अस्ति. धनुषः अस्ति. रामः अस्ति. धनुषः अस्ति.
बाणः अस्ति.
माला अस्ति. माला अस्ति.
माला अस्ति. रामस्य धनु अस्ति.
रामस्य धनु अस्ति.
रामस्य धनुरस्ति अस्ति रामस्य हस्तः अस्ति
माला अस्ति रामः माला अस्ति तत् माला अस्ति
रामस्य माला अस्ति
रामस्य किरीटम् अस्ति
किरीटम् इस्
पुनः वदतु भगिनि
रामस्य किरीटम् अस्ति
What is kiritam?
Having headgear, so that is kiritam.
Achha, achha, achha. Okay.
Astu. Ram. Dhanu asti, Ramasya dhanu.
Okay.
Like we talked about Shashti Vibhakti before. Okay, Ramasya, Ram ka dhanu. Right? Ramasya vanaha. Ram ka
vanaha.
So Ramasya Ramasya So Ramaha Sya when we you add Sya in the end that becomes the Shashti Vibhakti like Balkas Balasya Patram Balasya Syutaha Is that okay?
Yeah, it's not balakas, balasya.
Balaha means a small boy, Balakaha means somewhat 10 years like that, correct madam?
I think they are used in older. The same sash. Bala, Balika. So Balika becomes a Istrilingam. And Balaha is Pulinga. Sometimes Balak, like a Hindi may be used for बालक बालिका
बालिका
छोटे बच्चों के लिए कुछ भी यूज कर सकते
हैं
ना बालक बालिका बाला बालिका
बाला में भी कॉमन फॉर बोथ
तो आगे वृक्ष 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 से पत्रम वृक्षस्य फलम् एक अन्य वाक्यं वदतु
वृक्षस्य बीजम्
वृक्षस्य बीजम्
वृक्षस्य शाखा
मैडम् ट्रंक् वाट् वी से काण्डं वाट् वी से ट्रंक् आफ् द ट्री ट्रंक् टी आर् दिस्
ओ स्तंभ स्तंभ
स्तंभ
रूट
रूट ही होगा इसका तो रूट नहीं जड़ जड़ रूट तो इंग्लिश का शब्द है ना
जड़ा
जड़
राम राम
नेक्स्ट इज कृषिक
कृषिक
एक एक बोल सकते ना कि
एक बार आप
सैनिक
सैनिक
आरक्षक
वैद्य वैद्य
चित्रकार
बारवाह
बारवाह
तंत्रज्ञ
तंत्रज्ञस्य
कर्मकार नर्तकः
नर्तकस्य
लिपिकारः नटः
लिपिकारस्य नटस्य
धीवरस्य
धीवरः
स्वर्णकारस्य
ग्राहकस्य
One minute.
Screen did not move.
You can see the screen, right?
The screen, yes.
No, ma'am. Up to only Tantrajnaha I got then. Afterwards, nothing. Only Rama. That screen only there.
Slide number 15.
From Ramaha to Tantrajnaha.
Karamkaraha Nartakaha. You can't see that?
No, ma'am.
Achha, I could see that.
Yeah. It's in the preview as well.
सः एषः कः
Are you able to hear me?
Yes, clearly.
Oh.
Yes, ma'am, I can hear.
Hello.
Hello.
Yes.
Yes, ma'am.
Do apologize. I don't know what happened.
It's okay.
So, can you see my screen now?
Yes.
Yeah, ma'am.
So, what do you see at the minute?
Is
it
patrasya. Patrasya.
पुष्पस्य
Are you able to see now?
Yes, ma'am.
Okay. So now, can you see Vimla Bhagini, all the full screen?
Yes, ma'am.
okay, karmakarah and grahikah.
Shashakasya Gopalasya.
We have to increase the class.
Kandukasya.
Chashikah, Chashikasya.
Gopalakah, Gopalakasya.
Screen size is small?
If you increase little bit, it will be more convenient for me to see. Just one controller.
I think enough, because mine is a mobile, so I can see.
Okay. Archakah, where we are?
Gopalakah, Gopalakasya.
Sevakasya.
Adhyapakah,
Adhyapakasya.
Chalakah.
Chalakasya.
Bhagini, jaldi nahi kare, aap dheere se jalakah, chalakah.
Chalakah.
No, chalakah.
Chalakah.
चालकः
चालकस्य
चालकस्य
लेखकः लेखकस्य
लेखकस्य प्रबन्धकः
प्रबन्धकस्य
निर्देशकः निर्देशकस्य
अर्चकः अर्चकस्य
अर्चकः
अर्चकः अर्चकस्य
जो डॉट सेंड में होता है ना,
हाँ,
उसको विसर्ग बोलते हैं. और जब उसमें अगर एंड में अ आता है तो उसको अ के साथ ही बोलते हैं. अगर मान लो कि यहाँ पे वधु है, वधु के पेट में लिखा विसर्ग है, तो वधु अगर ए है तो उसमें ए अह अह.
ओके,
तो जो भी वोवल उसमें एंड है ना, उसी को फॉलो करते हैं.
ओके. अर्चक अर्चक इज इट करेक्ट?
अर्चकः
अर्चकः अर्चकः अर्चकः अर्चकः
अर्चकस्य
अर्चकस्य. एक्सक्यूज मी मैम, दिस प्रबंधकः इज मैनेजर, बट एक्चुअली स्टोरी आल्सो कम्स ना, प्रबंधकः.
एनीबॉडी वाज मैनेजिंग थिंग्स एंड प्रबंधकः. It could be
in another sense we got as a story. That's why means two meanings are there, correct? No?
Yeah, I can. Oh.
Thank you.
Any vyadhaha?
Vyadhaha? Vyadhasya. Ma'am, but I'm not getting the screen.
Oh, again?
Maybe your screen, you're on mobile, the screen is short, therefore you are seeing half of it. Just slide on the right side.
Okay. I got it.
Got it?
Okay. I have to move.
Yeah.
Vyadhah, Vyadhasya.
Patravitarakah.
Patravitarakah, Patravitarakasya.
Gayakah.
Gayakasya.
पुरोहितस्य
नायकः नायकस्य
पाचकः पाचकस्य.
भगिनी आपने फिर से वैसा बोला, पाचकः
पाचकः. इज इट करेक्ट?
पाचकः
पाचकः पाचकस्य.
छात्रः
छात्रः छात्रस्य.
So Abhi, we have Ramaha, Kandukaha. So we could say Ramasya Kandukaha.
Okay.
Ram ball bhi khelte the?
गोपालकः एण्ड् गृहं
गोपालकस्य गृहं
यू कुड् आल्सो मेक् युर् ओन् सेण्टेन्सेस्
फार् मी द स्क्रीन् इस् स्माल्
Mine is full screen, so I'm not sure.
Oh, I see. Okay. For difficulty was that.
No.
Little bit of eyesight problem.
Okay.
Still magnifying lens. Okay. I'll do it.
So I will say a word and you make a sentence. Ganeshah Mushikah.
Ganeshakasya Mushikah.
Ganeshasya Mushikah.
Oh, Ganeshasya Mushikah.
Skandah Mayurah.
Skandasya Mayurah.
Shlokah Chandah.
श्लोकस्य छन्दः
वृक्षः बिलं
वृक्षस्य बिलं
कामदेवः बाणः
कामदेवस्य बाणः
अभिषेकः अम्बा
अभिषेकस्य अम्बा
छात्रः लेखनी
छात्रस्य लेखनी
पुत्रः
पुत्रस्य पुत्रः
पुत्रस्य पुत्रः
मिस् पौत्रः पौत्रः
अस्ति
हां
करेक्ट क्या पौत्र
हां पौत्र
पुत्रस्य पुत्र पौत्र अस्ति
हा पात्र अस्ति सम्यक् बालकः द्विचक्रिका
बालकस्य द्विचक्रिका
बालकस्य द्विचक्रिका सुन्दर अस्ति
सुन्दरा
अस्ति फेमिनिन् करेक्ट् स्त्रीलिङ्ग
जनकः कार्यानम्
जनकस्य कारयानं सुन्दरम् अस्ति
कार्यानं सुन्दरमस्ति
कार्यानं श्वेतः अस्ति
श्वेतः सम्यक् नास्ति
श्वेतमस्ति
पितामह उपनेत्रम्
पितामहस्य उपनेत्रं
सूर्यतापः
सूर्यस्य तापः
सो
मैडम अनबेरेबल लाइक दैट व्हाट कैन वी से
सेंटेंस इज हाफ एक्चुअली
सॉरी मैं सुनाई नहीं दिया ठीक से क्या बोला
सन्स ही Sun's heat is unbearable, like that. What can we say? Suryasya tapaha?
Suryasya tapaha, I have to think.
No, but it is very high also, you can say. Tapa,
Adhikam asti.
Oh, Suryasya tapaha, Adhikam asti.
No, Adhikaha asti.
Suryasya
tapam, Adhika asti. No, tapam ne, tapaha Adhikaha. So all these sentences were akaranta ramah krishnah dashanamah chatashah arivindah yeah sangeeta bagini thoda mute kar
Okay, madam, can I tell like this?
What
yeah. Actually, Grishma Kale Suryasya Tapaha Adhikaha Asti
ग्रीष्मकाले सूर्यः
सूर्यस्य तापः अधिकम् अस्ति.
तापः, इफ् यु आर् यूसिङ्ग् तापः देन्
ग्रीष्मकाले सूर्यस्य तापम् अधिकम् अस्ति.
न, तापः अधिकः अस्ति. Do you use this spoken sanskrit.org?
Okay.
Check in that.
Okay, ma'am.
So tapaha is pullingaha.
Okay.
So when you are using then it goes into that,
visheshana should also follow that, correct, ma'am?
Sorry, sir.
That adhikaha means visheshan, correct? Adhika.
Haan. Visheshan, visheshya bhava. Okay. Vachanam, pulling gender and vibhakti, tino match karta hai usme.
Okay.
Bhaini, aapka wo email to nahi aaya tha, aapse poocha tha na?
मैडम से पूछी थी और कुछ डाउट से मैं कल भेज दूंगी.
ओके, नो वरीज. निपुंसक लिंग में भी सेम ही है, अस्य पुस्तकस्य पत्रम. बट व्हेन वी आर टॉकिंग अबाउट स्त्रीलिंग लाइक सीता, मैथिली, सीता इज आकरांता, पत्नी इज ईकरांता. मैथिली इज इकरांता. तो उसने याहा जैसे भवती भवत्याः, मैथिली मैथिल्याः, मैथिल्याः उसकी त्याः, राइट? सो वी कैन So let's do a neuter one. Nipunsaklinga first. Patra patrasya. पुष्पं
पुष्पस्य.
सो नाउ लेट्स डू लिटिल बिट ऑफ प्रैक्टिस ऑफ फॉर दिस शब्दाः.
फलं फलस्य.
नयनं नयनस्य.
नेत्रं
नेत्रस्य.
तोयं
तोयं तोयस्य.
पर्णं पर्णस्य.
कन्दुकः कन्दुकस्य.
चिबुकं चिबुकस्य.
अन्नस्य.
दुग्धं
इट् इस् साउंडिंग लाइक अन्यत्र.
दुग्धं
दुग्धस्य.
लवणं लवणं लवणस्य.
पात्रं
पात्रं पात्रस्य. पात्रस्य
पत्रं
दट् इस् पात्रं. दिस् इस् पत्रं पत्रस्य.
चित्रं
चित्रस्य.
वनं
वनं वनस्य.
जलं
जलं जलस्य.
भवनं
भवनं भवनस्य.
नखं
नखस्य.
नखस्य. सो इफ यू वांट वी कैन कंटिन्यू प्रैक्टिस. लेट्स डू क्विकली दिस वन एज़ वेल. गृहं
द्वारं.
गृहस्य द्वारं.
So make full sentence. Grahasya dwaram. दूरे अस्ति गृहस्य द्वारं तत्र अस्ति फलं बीजं
फलस्य बीजम् अस्ति
फलस्य बीजं कृष्ण
फलस्य बीजं सूक्ष्मम् अस्ति ओके
पीतं
पीतम् अस्ति रक्तम् अस्ति रक्त द्वारे अस्ति मित्रं पत्नी
मित्रस्य पत्नी सुन्दरी अस्ति
वाहनं चालकः
वाहनस्य चालकः चतुर अस्ति
वाहनं चालकः चतुरः अस्ति
महाभारतस्य अध्यायः कठिनः अस्ति
कठिनः अस्ति दीर्घः अस्ति पुस्तकं पुटः
पुस्तकस्य पुटः वाक्यं
तत्र न पुस्तकं
दीर्घः अस्ति
भ्रष्टं
ओ पुस्तकस्य पुटः भ्रष्टम् ओके
भ्रष्टम् अस्ति
ओ भङ्गम् अस्ति
भङ्गम्
अस्ति
भङ्गः
सङ्गणकस्य पटलं श्वेतः अस्ति
सङ्गणकं पटलं मीन्स् स्क्रीन् मेम् सङ्गणकस्य पटलं
श्वेतं
रङ्गीनम्
ब्लाक् मीन्स् ब्लाक्
कृष्णपटलं
सङ्गणकस्य पटलं कृष्णः कृष्णम् अस्ति कृष्णम्
चलचित्रं नटी
नटी सुन्दरी अस्ति सुन्दरी अस्ति
सर्वे नट्याः सुन्दराः सन्ति
पत्रस्य वर्णः नीलः अस्ति
पत्रस्य वर्णः नीलः अस्ति वस्त्रं सूत्रम्
वस्त्रस्य सूत्रं
क्रिष्कः लैक् थिन्
केन् यु रिपीट् मेम्
ऐम् जस्ट् चेकिङ्ग् देट् the spellings are correct but like I can come back to you in a minute okay next one
Yasmin is blank
is it blank
no it's coming
no that time maybe you were checking so you went to other tab
oh I thought that doesn't make any sense.
It did.
Mm-hmm.
Now also it has disappeared.
Disappeared again.
Yeah, that time when you were trying to check, possibly that time our screen was there.
Okay, so... Pushpam Pushpadhani.
Pushpasya Pushpadhani.
सुन्दरम् अस्ति.
नेक्स्ट् वन्.
नो नो,
नथिङ्ग् इस् गुड् टु बी मूव्ड्.
Screen is there, Jeevanam?
No,
no, no, no. I'm not getting.
I don't know
some
what's going on.
Some part black, some part white.
Maybe move again in your mobile.
No, 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 I'm not seeing. Screen is black.
Now?
I saw your screen disappearing.
Now?
No.
I think we might have to
about a start new movie.
Okay. Has he come back?
No, it's only right side. Anuradha is presenting.
I have okay, now let's try again.
Waiting for presenter to share their screen.
Is it better now?
No.
Oh my God.
No. It's there. It's there.
Okay.
Got me.
Okay. Try next.
24 number slide, right?
The three.
Pushpadhani.
You were asking about
Sutram.
Krishaha.
Krishaha, okay.
Krisha is thin. Then Vastram Sutram.
Vastram, Vastrasya Sutram Krisham Asti, ma'am.
Sutram Krisham.
Krisham Asti.
Vastram, Vastrasya Sutram कपास कपास च निर्मित निर्मिति कपास का बना होता है कॉटन का होता है क्या बोलते हैं
दैट विल बी कपासेन दैट विल बी तृतीया विभक्ति
कपासेन
विद निर्मितः निर्मितम
कार्पसानि कार्पस कर्पास
कपास कपास इज दैट फ्लावर राइट
कॉटन बेसिकली
कॉटन तो इफ यू आर सेइंग कॉटन यू माइट से तुली
कॉटन इज तुली
तो तोली या तुली मैम
तुली
तुली
और कपास कपास इटसेल्फ इज फाइन कपासेन निर्मितम अस्ति राइट पुष्पम पुष्पधानी
पुष्पस्य पुष्पधानी फैट मीन्स स्थूल अस्ति लाइक
स्थूल इज लाइक बिग और फैट
पुष्पधानि स्थूलम् अस्ति
स्थूला
स्थूला ओके मी ओके पुष्पस्य पुष्पधानि स्थूला अस्ति
जीवनं लक्ष्यं
जीवनस्य लक्ष्यं विशाल अस्ति
विशालम् अस्ति
विशालम् अस्ति
So, mainly while we...
Can you tell another... Jeevanasya Lakshyam, if we should have a Lakshya in life like that, for that what we can...
Kopi nasti. Mam Jeevanasya Lakshyam, Dhanam Sangritam asti. Dhanam Sangritam asti.
जीवनस्य लक्ष्यं मृत्यु नास्ति.
जीवनस्य लक्षणं सेवामस्ति. अस्तु.
तथापि तुम त्वं करोति.
मन्दिरं परिसरः.
मन्दिरस्य परिसरः सुन्दरः अस्ति. मन्दिरस्य परिसरः विशालः अस्ति. मेडम् क्लीन् मीन्स् शुभ्रं शुभ्रः वाट् वि से फर् क्लीन्
फोर् क्लीन् लैक् स्वच्छ यू कुड् आल्सो से विमला. लेकिन् स्वच्छः इस् फैन्.
मन्दिरस्य परिसरः स्वच्छः अस्ति. क्षेत्रस्य कूपः क्षेत्रस्य कूपः विशालम् अस्ति. विशालः अस्ति.
Vishal or deep? Are you trying to say deep?
Ha, deep. Deep also. Deep means...
Deep would be more then, like...
Means actually, I thought this one big... sometimes... what we say, steps and inside one... well type thing also will be done all. Earlier times, they should have...
Yes, there was sopana. Sopanam. Yes. Sopanam is steps. So you could say kupasya sopana
kshetrasya kripa jalam asti kshetrasya paane jalam nasti
kupasya kshetrasya kupe that is saptami vibhakti you
kshetrasya kripe jalam nasti jalam nasti.
जलं नास्ति. किञ्चित् जलमस्ति. मलिनं जलमस्ति. सङ्गीता भगिनी, यु आर् आल्सो गिविङ्ग् द एक्साम् इन् फेब्रुवरि?
नो 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 नाट् अट् आल्. वेर् इस् द एक्साम्? ऐ हाव् नो ऐडिया.
इट्स् अ प्रवेशः.
No, we just started, na. Was there any announcement?
No, this is something different from Sanskrit Bharati. So every February and every August, there is an exam.
Okay. No, I don't.
So, if you want to give, you can always go to Sanskrit Bharati's website.
दिस् साङ्ग् इस् देर् इन् अवर् अभ्यास पुस्तिका.
अभ्यास पुस्तकं न अभ्यास पुस्तके एतत् गीतं नास्ति. ऐ विल् शेर् द स्लैड्. सो डु यु वाण्ट् टु रीड् एनिबडि वाण्ट् टु
मैम् वी विल् रिपीट् आफ्टर्
श्योर् ओके. शिव शिव चत् कः
जीव जीव चटकः
कौ कौ काकः
कौ कौ काकः
वदति कपोतः गुटरुङ्गुम्
वदति कपोतः गुटरुङ्गुम्
मिठु मिठु शुकः
मिठु मिठु शुकः
कुहु कोकिलः
कुहु कुहु कोकिलः
वदति कुक्कुटः कुकू चकु
वदति कुक्कुट
वदति कुक्कुटः
वदति कुक्कुटः
कुकु चकु
कुकु चकु
कुकु चकु
कुकु चकु
कुकु चकु
कुकु चकु
वदति कुक्कुटः कुकु चकु
वदति कुक्कुटः कुकु चकु
वहरति शेनः
वहरति शेनः
नीलाकाशे
नीलाकाशे
वहरति शेनः नीलाकाशे
विहरति शेनः नीलाकाशे
गृधा अपि च सञ्चरति
गृधा अपि च सञ्चरति
बकः उल्लुकः
बकः उल्लुकः
बकः उल्लुकः किमपि न वदतः
बकः उल्लुकः किमपि न वदतः
मौनीभूतौ पश्यत् रे
मौनीभूतौ पश्यत् रे सुन्दर सरसि
श्वेतः हंसः
श्वेतः हंसः
सुन्दर सरसि श्वेतः हंसः
सुन्दर सरसि श्वेतः हंसः
कादम् अपि तत्रैव
कादम् अपि तत्रैव
कादम्बः
कादम्बः
अपि तत्रैव
अपि तत्रैव
कादम्बः अपि तत्रैव
कादम्बः अपि तत्रैव
पक्षिगणानां
पक्षिगणानां
राजा कः खलु
राजः कः खलु
पक्षिगणानां राजा कः खलु
पक्षिगणानां राजा कः खलु खलु
रम्यमयूरः स एव
रम्यमयूरः स एव
रम्यमयूरः स एव
रम्यमयूरः स एव
चिव चिव चटकः कौ कौ काकः
चिव चिव चटकः कौ कौ काकः
वदति कपोतः गुटरुगुम्
वदति कपोतः गुटरुगुम्
मिठु मिठु शुकः कुहु कोकिलः
मिठु मिठु शुकः कुहु कोकिलः
वदति कुक्कुटः कुकूचकु
वदति कुक्कुटः कुकूचकु
विहरति शेन नीलाकाशे
विहरति शेन नीलाकाशे
गृधा अपि च सञ्चरति
गृधा अपि च सञ्चरति
बकः उलूकः किमपि न वदत् मौनीभूतौ पश्यत् रे
बकः उलूकः किमपि न वदति वदतः मौनी
भूतौ पश्यत रे
मौनी भूतौ पश्यत रे
सुन्दर सरसी श्वेतः हंसा कादम्बा अपि तत्रैव
सुन्दर सरसी श्वेतः हंसः कादम्बरः अपि तत्रैव
पक्षिगणानां राजः का खलु रम्यमयूरः स एव
पक्षिगणानां राजः कः खलु रम्य रम्यमयूरः सा एव
पक्षिगणानां राजा का खलु रम्यमयूरः सा एव
पक्षिगणानां राजः जा कः खलु रम्यमयूरः सा एव
Do you understand the meaning?
Yes, ma'am. Ma'am, can we send us this? It's very nice, actually.
Yeah. So, if you look at this slide, Chiva Chatkaha.
Chatka is sparrow.
Kau Kau Kaha.
Okay.
Next is Kapotaha. Vadati Kapotaha Gutrugum. Yeah. Then mitu mitu shukaha next one kuku kokilaha vadati vadataha kuku then vaharati shena she पक्षिगणानां राजा कादम् अपि तत्रैव
Right? Very nice.
Okay. You send us separately this PPT. Don't send in the link. I'm not able to download it properly.
Attachment can be quite big.
No, it won't be. See, this one, what happens, when you are giving the audio or video recording, you have to spend entire 1.5 hours. Whereas in PPT, then I can quickly see it. I don't think it will be big. I'm talking about PPT, not recording.
Recording PPT, I'm sending all of that.
No, you are sending us the link. PPT separately was not accessible. I mean, I'm telling about as an attachment. PPT will be small. It will be not like
I'm sending the PPT as well. If you can't get it, I will send you the attachment. Is that okay?
I did not. I could really spend half hour again, go through that. But when PPT is there, I can try it with that.
Yeah, that's fine. I will send it. I will send that. Okay, Samyak. Now, we will just do the Shanti Mantram and the Shabdam. Yes?
Okay.
So, in the meantime, for the next lesson, we will do the Istri Lingam. Shashti Vibhakti.
Okay.
And you can always email me. When the email you get, you just do the reply. And that will be my email.
Okay, ma'am.
And also my WhatsApp number is there.
Yeah, I saw. Thank you for sending this.
Yeah, so you could always contact me if there is any problem.
Okay, ma'am.
Okay. ॐ सॉरी सर्वे भवन्तु सुखिनः
ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामया
सर्वे सन्तु निरामयाः
सर्वे भद्राणि पश्यन्तु
सर्वे भद्राणि पश्यन्तु
मा कश्चित् दुःखभाग् भवेत्
मा कश्चित् दुःखभाग् भवेत्
ॐ शान्ति शान्ति शान्तिः
ॐ शान्ति शान्ति शान्तिः
सो नेक्स्ट् वीक् अग्रे सप्ताह पुनः मिलामः
धन्यवादः
धन्यवादः
अध्यापिका महोदये
धन्यवादः विमला भगिनी अहम् अध्यापिका नास्ति अहमपि छात्रा अस्मि
but for us you are teacher we are learners from you so
tvam kim korsam karoti